एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। प्रधानमन्त्री शेरबहादुर देउवा वदति राष्ट्रे सम्भूतम् युगान्तकारी परिवर्तनम् संस्थागतीकर्तुम् लोकतान्त्रिक विधिम् पद्धतिम् च प्रति सर्वैः प्रतिबद्धैर्भाव्यम्। द्वासप्ततितम राष्ट्रिय प्रजातन्त्र दिवसस्य अवसरे मूल समारोह समित्या ह्यः टुनिखल स्थिते सैनिक मञ्चे आयोजिते समारोहे प्रधानमन्त्री देउवा अवासत समृद्धस्य समतामूलकस्य च समाजस्य निर्माणाय सर्वकारेण नागरिक समाजेन प्रतिपक्षिदलेन सर्वैः पक्षैश्च प्रतिबद्धैर्भाव्यम्। प्रधानमन्त्री देउवा अवोचत् स्थानीय स्तराणाम् आगामि निर्वाचनम् तदनुपदमेव सम्पत्स्यमानम् प्रादेशिक संघीय स्तरयोः निर्वाचनम् च निष्पक्षे स्वतन्त्रे भयरहिते च वातावरणे विधास्यति। प्रधानमन्त्री देउवा जननिर्वाचित प्रतिनिधिभिः राष्ट्रस्य शासन व्यवस्था संचालनकारिणीं पद्धतिम् अतिरिक्तं सुदृढीकर्तुं बलम् अदात्। प्रधानमन्त्री देउवा सर्वेषां समन्वयात्मक प्रयासेन कोविड संक्रमणं शीघ्रं पराजित्य राष्ट्रं सामान्यावस्थां प्रत्यावर्तयितुं साफल्यम् अवाप्स्यते इति विश्वासम् अभिव्यनक्। प्रधानमन्त्री शेरबहादुर देउवा निगदति गोरखापत्रम् बहुनाम् राजनीतिक सामाजिक परिवर्तनानाम् साक्षी वर्तते। कोहलपुरवर्ती गोरखापत्र संस्थानस्य प्रकाशनगृहम् श्रव्यदृश्य प्रविधेर्माध्यमेन ह्यः उद्घाटयन् प्रधानमन्त्री देउवा वर्तमाने वैद्युताङ्कनयुते युगे सप्ताब्दी पारन्तिकायाः दीर्घकालिक यात्रायाः पूरकम् गोरखापत्रम् अतिरिक्तम् सन्तुलितम् व्यावसायिकम् च विधातुम् परामृशत्। प्रधानमन्त्री देउवा गोरखापत्रम् कस्यापि मुखपत्रम् नास्तीति हेतोः एतत् प्रतिस्पर्धा अवस्थायाम् इतोऽपि दायित्वबाही व्यावसायिकम् विश्वसनीयम् च विधातुम् आवश्यकमस्तीति अब्रवीत्। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की समग्र नेपालस्य चित्रस्य प्रतिबिम्बकेन गोर्खापत्रेण पत्रकारिता क्षेत्रे महत्वपूर्णम् योगदानम् प्रदत्तमस्तीति हेतोः विषयवस्तुना प्रस्तुतीकरणेन च एतत् सर्वकारस्य अपेक्षया राज्यस्य पत्रिकायाः रूपेण पाठकानाम् पुरतो दृष्टमस्तीति अकथयत्। कार्यक्रमे संचार सूचना प्रविधि मन्त्रालयस्य सचिवः डा वैकुण्ठ अर्यालः अवदत् गोर्खापत्रस्य स्वस्य सेवायाः प्राप्तेश्च आराष्ट्रम् विस्तारके उद्देश्ये कोहलपुरस्य प्रकाशनगृहेण नवीनः आयामः प्रवर्धितो वर्तते। नेपाल कम्युनिष्ट पार्टी एकीकृत समाजवादी दलेन संसदः अवरोधे निवारिते सति एमसीसी नामिकायाः अमेरिका देशीय सहयोग परियोजनायाः प्रस्तुत्यै निर्णीतमस्ति। एकीकृत समाजवादी दलस्य स्थायी समितेः ह्यः उपविष्टेन उपवेशेन संसदि विमर्शनस्य वातावरणे निर्मिते सति एमसीसी परियोजनायाः प्रस्तुतिम् नावरोद्धुम् निर्णीतमिति दलस्य प्रवक्ता जगन्नाथ खतिवड़ा अज्ञापयत्। उपवेशेन सर्वसम्मतरूपेण यथास्थितौ संविधेयम् पारितीकर्तुम् न शक्यते इति निर्णीतम् वर्तते। आवश्यकतानुसारेण अतिरिक्तम् निर्णेतुम् केन्द्रीय सचिवालयाय दायित्वम् प्रदत्तमिति प्रवक्त्रा खतिवड़ा विधेन ज्ञापितम् अस्ति। नेपाली कांग्रेस दलस्य उपसभापतिः धनराज गुरुङ एमसीसी परियोजनायाः विलोकनस्य दृष्टिकोणम् परिवर्तयितुम् राजनीतिक दलानि अनुरुणद्धि। ह्यः चितवने पत्रकारैः सह मेलनक्रमे नेता गुरुङ अवदत् दलैः एमसीसी समुदायाः विषये भिन्नमतानि व्यक्तानि इत्यतः समस्या सृष्टा वर्तते। न्यायालयस्य प्रमुखदायित्ववाहिनः प्रधान न्यायाधीशस्य न्यायालय सञ्चालनस्य असामर्थ्यात् मार्ग प्रशस्तीकरणस्य अवस्थायामपि समस्याः असमाहिताः इत्यतः महाभियोगः पञ्जीकृतः इति नेता गुरुङ समस्पष्टयत्। नेपाली कांग्रेस दलस्य नेता डाक्टर शेखर कोइराला भासते एमसीसी संविधा विशुद्ध विकास निर्माण परियोजना वर्तते। विराटनगरे ह्यः आयोजिते कार्यक्रमे नेता कोइराला अवासत एमसीसी परियोजना नेपालस्य हिताय अस्तीति विषयः जनतायै ज्ञापनीयः। नेपालस्य विकास निर्माणाय विपन्नतायाः निवारणाय लोकतन्त्रस्य सबलतायै च परियोजनायाः क्रियान्वयनम् आवश्यकमस्ति इति चर्चयन् परियोजनायां पारितिकृतायां सत्यां वैदेशिक सेना आगमिष्यति इति भ्रमः व्यर्थोस्तीति नेता कोइराला समस्पष्टयत्। पूर्वार्थ मन्त्री नेपाली कांग्रेस दलस्य नेता च डाक्टर रामशरण महत कथयति नेपाले सम्प्रति एमसीसी संविधायाः विषये विधीयमाना आलोचना सत्या नास्ति। रिपोर्टर्स क्लब नेपाल संस्थया ह्यः आयोजिते कार्यक्रमे नेता महत एमसीसी परियोजना देशस्य हिताय अस्तीति चर्चयन् संसदा संविधेयम् पारितीकर्तुम् बलम् अदात्। परियोजनायां पारितीकृतायां सत्यां देशाय आघातो भविष्यति अमेरिका देशीया सेना चागमिष्यति चेति आलोचना अनुचितास्तीति नेता महत समस्पष्टयत्। सर्वेषां दलानां सहमत्या परियोजनेयं पारितीकर्तव्यमिति धारणां प्रकटयन् नेता महत अवदत् देशस्य हितस्य प्रश्ने अपरेण देशेन सह सम्बन्धो न विकारणीयः। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली आगामिनो वैशाख मासस्य त्रिंशे दिवसे सम्पत्स्यमानं स्थानीय स्तराणां निर्वाचनं निष्पक्ष रूपेण संचालयितुं कर्मचारिणः सुरक्षाकर्मिणश्च अनुरोधी। भक्तपुरे सूर्य विनायक नगर चिकित्सालयं पूर्वेद्धि उद्घाटयन् अध्यक्ष ओली अवोचत् निर्वाचनस्य निष्पक्ष रूपेण सम्पादनाय कर्मचारिभिः प्रशासनेन च सहयोगो विधातव्यः। अध्यक्ष ओली अगदत् सत्ता गठबन्धनेन एमसीसी समितायाः विषये निर्णयं कर्तुम् अशक्ततायाः कारणेन अन्तर्राष्ट्रिय सम्बन्धः दूषितो वर्तते। अध्यक्ष ओली सर्वकारेण एमसीसी संविधा संसदि प्रस्तूयते, संसदा एव निर्णयो विधीयते इत्युक्तो अवरोधिता सम्प्रत्यपि निर्णयनस्थलम् संविधान प्रापयितुं सक्तम नास्तीति आरोपयत। दसपा नाम्नो जनता समाजवादी दलस्य अध्यक्ष उपेन्द्र यादव भासते निर्वाचने व्यसाध्ये सति निष्ठावतां नैतिकवतां च जनानां कृते निर्वाचनस्य अवसरात् वञ्चनस्य अवस्था सृष्टा वर्तते। ह्यः वीरगंज स्थाने आयोजिते जनता समाजवादी दलस्य आम आदमी नेपाल दलस्य च समायोजनस्य घोषणा समारोहे नेता यादव अकथयत् संघीय लोकतन्त्रं गणतन्त्रं च संस्थागति कर्तुं स्वल्पदलानां समायोजनपूर्वकं दलं अग्रे वर्ध्यते। प्रमुख निर्वाचन आयुक्त दिनेश कुमार थपलिया आगामिनी स्थानीय स्तराणां निर्वाचने राजनीतिक दलानि प्रत्याशिनश्च सावधानतायाः अवलम्बनाय परामृशति। निर्वाचनायोगेन षष्ठ निर्वाचन दिवसस्य अवसरे ह्यः आयोजिते कार्यक्रमे प्रमुख निर्वाचन आयुक्त थपलिया क्रीडकानामिव सावधानतायाः अवलम्बनाय दलानि प्रत्याशिनश्च अनुरुणत्। प्रमुखायुक्त थपलिया आयोगाय अन्तर्गतस्य कर्मचारिभ्यश्च निर्वाचनस्य पूर्वकार्यं विशिष्टावसरस्य रूपेण मत्वा कार्याणि विधातुं परामृशत्। राष्ट्रिय सभायाः अध्यक्ष गणेश प्रसाद तिमलसिन्हा कथयति कोविड 19 विषाणो निरोधनाय नियन्त्रणाय च सर्वकारेण विहितानि कार्याणि महत्वपूर्णानि प्रशस्यानि च सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन विश्व स्वास्थ्य संगठनस्य सहयोगे ह्यः पोखरायाम् आयोजिते कार्यक्रमे अध्यक्ष तिमलसिन्हा अवोचत् नेपाल सदृश्य राष्ट्रिय टीकाकरणस्य सहजीकरणेन अन्यैः व्यवस्थापनस्य कार्यश्च कोरोना विषाणोः निरोधन नियन्त्रणयोः कृते सहजता सम्भूतास्ति। अध्यक्षः तिमलसिन्हा पश्चात्तन राजनीतिक घटनाक्रमेण नागरिकेषु नैराश्यम् उद्भूतमस्तीति भासमानः देशस्य समृद्धये सुशासनाय विकासाय च सर्वैः ध्यानं दातुं बलं प्रादात्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री प्रेमबहादुर आले वदति आगामिनो वैशाख मासस्य प्रथम दिवसे गौतम बुद्धान्तर्राष्ट्रिय विमानस्थलात् अन्तर्राष्ट्रियोड्डयनं प्रारब्धा। विमानस्थलस्य निरीक्षणाय पूर्वेद्यु भैरवास्थानं प्राप्तो मन्त्री आले भारतेन सह प्रत्यक्ष मार्गस्य अनुमत्यै प्रयत्यमानमस्तीति अबोधयत्। मन्त्री आले अतर्कयत् विमानस्थलमेतत् देशस्य द्वितीयं विपुलं अन्तर्राष्ट्रिय विमानस्थलमस्तीति हेतोः अत्र अन्तर्राष्ट्रियोड्डयने प्रारब्धे सति काष्ठमण्डपे विमानोड्डयनावरोधस्य समस्या समाधास्यते। गृहमन्त्री बालकृष्ण खाना अवैध गतिविधिन् नियम्य राष्ट्रिय शान्ति सुरक्षे स्थापयितुं क्रियाशीलतायै गृह प्रशासनं निर्दिशति। ललितपुरस्य सुनाकोठीवर्तिनः बालकुमारी मन्दिरस्य चोरितायाः बालकुमारी मातुः मूर्तेः प्रतिष्ठापनस्य क्षमापूजायाः अनुसन्धाने संलग्नानां पदाधिकारिणां सम्मानस्य च कार्यक्रमे ह्यो गृहमन्त्री खाण एवं निर्दिशत्।